इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्याः करियप्पा परेड ग्राउंड इत्यत्र वार्षिकम् राष्ट्रीय कैडेट कोर एनसीसी इत्यस्य प्रधानमंत्री सभां संबोधयिष्यति। अस्मिन् वर्षे एनसीसी पीएम जनसभा इत्यस्य विषयः युवशक्तिः विकसितं भारतम् इति भविष्यति। अष्टशताधिकानां कैडेट इत्येतेषां सांस्कृतिक कार्यक्रमस्य प्रदर्शनं भविष्यति, यत् राष्ट्रनिर्माणं प्रति एनसीसी इत्यस्य प्रतिबद्धतां प्रदर्शयिष्यति। ततः परम् अस्मिन् कार्यक्रमे 18 मित्रदेशानां 44,100 यावत् यूनां कैडिट प्रतिभागिनाम् अपि सहभागिता भविष्यति। एतदतिरिच्य राष्ट्रव्यापी मेरा युवा भारत इत्यस्य अभियानस्य शिक्षामन्त्रालयस्य आदिवासी कार्याणां च 650+ स्वयंसेवकाः अपि विशेषातिथिरूपेण पथसञ्चलने भागं गृह्णन्ति। उत्तराखण्डराज्ये अद्यारभ्य समाननागरिकसंहिता UCC इति प्रवर्तते, येन हि उत्तराखण्डराज्यं प्रथमं राज्यं भविष्यति। मुख्यमन्त्रिणा पुष्करसिंहधामी इत्यनेन उक्तं यत् नियमानुमोदनम् आधिकारिक प्रशिक्षणं च समेत्य सर्वाः सज्जताः सम्पूरिताः सन्ति। UCC इत्यस्य उद्देश्यं व्यक्तिगत नागरिक नियमानां मानकीकरणम् अस्ति, सर्वेषां नागरिकाणां समानाधिकारः च सुनिश्चितः भवेदिति। उत्तरप्रदेश प्रशासनेन अद्यारभ्य प्रयागराजस्य सम्पूर्णं महाकुम्भमेलाक्षेत्रं वाहनप्रतिबन्धितक्षेत्रं घोषितम्। जनवरीमासस्य 29 दिनाङ्के मौनी आमावस्यायाम् अपेक्षितस्य विशालजनसम्मर्दस्य सुचारुप्रबन्धनं सुनिश्चेतुम् एषः निर्णयः गृहीतः अस्ति। बृहद्जनसम्मर्दं निरीक्षणार्थं तथा च सङ्गमक्षेत्रे अत्यधिकं समागमः न भवेदिति सुनिश्चित्य एकीकृत नियन्त्रण केन्द्रं स्थापितमस्ति। आपत्स्थितिं निवारणाय क्षेत्रेषु द्रुत प्रतिक्रिया दलानि नियोजितानि सन्ति। केन्द्रीय गृहमन्त्री अमितशाहः अद्य उत्तरप्रदेशस्य प्रयागराजं महाकुम्भं प्रति यास्यति। गंगा यमुना सरस्वती नद्यानां संगमस्थाने त्रिवेणी संगमे श्रीशाहः पवित्रावगाहनं करिष्यति। गृहमन्त्री पुरी द्वारका शंकराचार्यौ समेत्य अनेकैः सन्तैः सह मेलनं कर्तुं शक्नोति। वाणिज्योद्योगमन्त्री पीयूषगोयलः अद्यारभ्य संयुक्तायोगसभायाः 11 कृते ओमानदेशस्य मस्कट नगरस्य द्विदिवसीय यात्रायां भविष्यति। प्रवासावधौ श्रीगोयलः ओमानस्य वाणिज्य उद्योग निवेश प्रवर्धन मन्त्रिणा कैस बिन मोहम्मद बिन मूसा अल यूसुफ इत्यनेन सह मेलनं करिष्यति। उभौ मन्त्रिणौ व्यापारे निवेशे वैश्विक आर्थिक स्थितौ च व्यापक विमर्शं करिष्यतः। वाणिज्य उद्योग मन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् एषा यात्रा ओमान देशेन सह व्यापार निवेश सम्बन्धेषु देशस्य प्रतिबद्धतां प्रतिपादयिष्यति, द्वयोः देशयोः सम्बन्धं च अधिकं सुदृढं करिष्यति। ICC अण्डर 19 इत्येतस्यां महिला T20 विश्वचषक प्रतिस्पर्धायां ह्यः कुआलालम्पुर नगरस्य वायुमास ओबाल क्रीडाङ्गणे बांग्लादेशम् 8 भारतेन पराजितम्।